सत्राजितस्त्वमथ लुब्धवदर्कलब्धं दिव्यं स्यमन्तकमणिं भगवन् अयाचीः तत्कारणं बहुविधं मम भाति नूनं तस्यात्मजां त्वयि रतां छलतो विवोढुम् अदत्तं तं तुभ्यं मणिवरम् अनेन अल्पमनसा प्रसेनस्तद्भ्राता गळभुवि वहन् प्राप मृगयाम् अहन्नेनं सिंहः मणिमहसि मांसभ्रमवशात् कपीन्द्रः तं हत्वा मणिमपि च बालाय ददिवान् शशंसुः सत्राजिद्गिरम् अनुजनास्त्वां मणिहरं जनानां पीयूषं भवति गुणिनां दोषकणिका ततः सर्वज्ञोऽपि स्वजनसहितो मार्गणपरः प्रसेनं तं दृष्ट्वा हरिमपि गतो भूः कपिगुहां भवन्तम् अवितर्कयन् अतिवयाः स्वयं जाम्बवान् मुकुन्दशरणं हि मां क इह रोद्धुम् इत्यालपन् विभो रघुपते हरे जय जय इत्यलं मुष्टिभिश्चरन् तव समर्चनं व्यधित भक्तचूडामणिः बुद्ध्वाथ तेन दत्तां नवरमणीं वरमणिं च परिगृह्णन् अनुगृह्णन् अमुमागाः सपति च सत्राजिते मणिं प्रादाः तदनु सखलु व्रीडालोलो विलोलविलोचनां दुहितरमहो धीमान् भामां गिरैव परार्पिताम् अदितमणिना तुभ्यं लभ्यं समेत्य भवानपि प्रमुदितमनाः तस्यैवादात् मणिं गहनाशयः व्रीडाकुलां रमयति त्वयि सत्यभामां कौन्तेयदाह कथयाथ कुरून् प्रयाते हि गान्धिनेयकृतवर्मगिरा निपात्य सत्राजितं शतधनुः मणिमाजहारा शोकात् कुरून् उपगताम् अवलोक्यकान्तां हत्वा द्रुतं शतधनुं समहर्षयस्तां रत्ने शशङ्क इव मैथिलगेहमेत्या रामो गदां समशिशिक्षत धार्तराष्ट्रम् अक्रूरजेष भगवन् भवदिच्छयैव सत्राजितः कुचरितस्य युयोजहिंसाम् अक्रूरतो मणिम् अनाहृतवान् पुनस्त्वं तस्यैव भूतिम् उपधातुम् इति ब्रुवन्ति भक्तस्त्वयि स्थिरतरः स हि गान्धिनेयः तस्यैव का पथमतिः कथमीश जाता विज्ञानवान् प्रशमवान् अहम् इत्युदीर्णं गर्वं ध्रुवं शमयितुं भवता कृतैव यातं भयेन कृतवर्मयुतं पुनस्तम् आहूय तद्विनिहतं च मणिं प्रकाश्य तत्रैव सुव्रतधरे विनिधाय तुष्यन् भामाकुचान्तरशयः पवनेश पायाः ॐ तत्सदिति श्रीमन्नारायणीये अशीतितमं दशकं समाप्तं श्रीहरये नमः रमारमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।